वेदं कविभ्यः पूर्वेभ्यो नमो वाकं प्रशास्महे विन्देम देवतां वाचम् अमृतामात्मनः कलाम् अयि सुहृत् श्रोतारः वाग्देव्यै प्रणमाञ्जलिः समर्पयन्ति इयम् अहम् निधिः तिवारी अत्र श्रोतृभ्यः जनेभ्यः नमस्करोमि आगम्यताम् तावत् अस्य संस्कृत साप्ताहिकीति कार्यक्रमस्य शुभारम्भः सुभाषितेन सह प्रस्तूयते सहयोगिनया निधिना
ज्ञानशक्ति समारूढः तत्त्वमाला विभूषितः भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः। अर्थात जो ज्ञान और शक्ति से परिपूर्ण है, जो तत्व सैद्धांतिक विषयों की माला से विभूषित है, तथा जो भुक्ति मुक्ति प्रदाता अर्थात समुत्कर्ष व निःश्रेयस को देने वाले हैं, उन श्री गुरु को प्रणाम।
शोभना प्रस्तुति रियम धन्यवादाः। प्रिय मित्राणि, कस्यापि विषयस्य आधारः प्रसंगं विना अर्ध एव, ततस्तु कार्यक्रमस्यास्य प्रसंगः अपि अपेक्षते। प्रसंगानुभागम् आधारीकृत्य नरेन्द्र दत्त सेमवालः प्रस्तौति इमां स्तुतिम्।
नागेन्द्रहाराय त्रिलोचनाय अस्मांगरागाय महेश्वराय नागेन्द्रहाराय त्रिलोचनाय अस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः शिवाय नमः शिवाय ओम नमः शिवाय।
कर्णप्रिया वाणी धन्यवादाः। श्रोतारः, अधुना कार्यक्रमस्य साप्ताहिकी वार्तान्तर्गतं विगत सप्ताहस्य घटनाक्रमान् विषयान् च प्रवदति अस्माकं सहयोगिनी सुषमा कुमारी। अस्तु तावत् वार्ताः कर्णगोचरी कुर्वन्तु।
प्रधानमन्त्रिणा नरेन्द्र मोदिना स्नेह मिलन इत्यमुं कार्यक्रमम् आलक्ष्य नवदिल्ल्यां भाजपा मुख्यालये कार्यरतैः कर्मचारिभिः साकं सम्भाषणं कृतम्। विदेश सचिवः विक्रम मिश्री भूटान देशीय यात्रायां द्विदिवसार्थं गन्तुकामः। भारतदेशेन त्रिंशदुत्तर द्विसहस्रतमं वर्षं यावत् इलेक्ट्रॉनिक्स विनिर्माण क्षेत्रे 500 बिलियन अमेरिकी डॉलर मित व्यापारस्य लक्ष्यं स्थापितम्। युव प्रकरणानां खेल मन्त्रिणा च डॉ मनसुख मांडविया वर्येण खेलो इंडिया राइजिंग टैलेंट आइडेंटिफिकेशन कीर्ति इत्यस्य अभियानस्य द्वितीय चरणस्य नवदिल्ल्यां उद्घाटनं विहितम्। पवित्र गुहायाः अमरनाथ तीर्थ यात्रायाः 1,80,000+ तीर्थ यात्रिणां समूहः जम्मू आधार शिविरतः कश्मीर उपत्यकां प्रति प्रस्थितः।
धन्यवादाः। प्रियाः संस्कृतानुरागिणः, संस्कृत शास्त्रेषु ज्ञानप्रसारः विद्वद् मनीषिभिः कथितः, अत एव विदुषां पार्श्वे यद् ज्ञानमस्ति तस्य प्रसारः उत्सुकेषु जनेषु कौशलवर्धनं समाजोपयोगी च भवेदिति। एतदर्थं ज्ञानविज्ञान विभागेऽपि अद्य ज्ञानवर्धनाय उपस्थितास्सन्ति श्री लालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य शिक्षापीठस्य सहायकाचार्याः डॉ दिनेश यादव महाभागाः। आयान्तु तावत् शृणुमः एषः साक्षात्कारः। एतैः विद्वद्भिः सह संवादं साधयति अस्माकम् सहयोगी सुरेश चन्द्र शर्मा।
वागर्था विवस्सम्पृक्तौ वागर्थः प्रतिपत्तये जगतः पितरौ वंदे पार्वती परमेश्वरौ। प्रियाः संस्कृत भारती समुपासकाः प्रियाः श्रोतारः, अद्य आकाशवाण्याम् अस्माभिः सह विराजन्ते नवदेहलीस्थस्य श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य शिक्षापीठे सहायकाचार्याः डॉक्टर दिनेश यादव मान्याः। यादव महोदयानां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहम् सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च व्याहरामि।
धन्यवादाः सुरेश महोदयाः।
मान्याः, एतस्य संवाद प्रभागस्य प्रथमे अंशे प्रश्नः यत् संस्कृत भाषायाः विषये भवताम् अभिमतम् किम् इति ज्ञातुम् इच्छामः।
जी, वस्तुतः संस्कृतम् इदानीं समाजे यथा विषयत्वेन दृश्यते तदतिरिक्तं संस्कृतं भाषारूपेण अस्ति। आदौ तत्रापि वयं वक्तुं शक्नुमः मानवस्य समस्त सामाजिक जीवनं भाषा आधारितो वर्तते। भाषायाः अभावे सम्पूर्णेऽपि संसारे अन्धकारः एव स्यात्। काव्यादर्शे तदर्थम् उल्लिखितमपि अस्ति, इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा वाचामेव प्रसादेन लोकयात्रा प्रवर्तते। इत्युक्ते भाषया एव एषा लोकयात्रा प्रवर्तते। उच्यते अपि यदि शिक्षा जीवनस्य निर्मात्री तर्हि भाषा अस्य उद्देश्यपूर्तये अत्यन्तं प्रभावी साधनं वर्तते। भाषा विभिन्न रूपं धारयन्ति अस्माकं सम्मुखे भवति, यथा मातृभाषा, प्रादेशिक भाषा, राष्ट्रभाषा, सांस्कृतिक भाषा, अन्ताराष्ट्रिय भाषा इत्यादयः। भारतीय परिप्रेक्ष्ये संस्कृतम् अस्माकं सांस्कृतिक भाषात्वेन विद्यते।
बहु समीचीनं प्रतिपादितं भवता यादव महोदयाः। सम्प्रति श्रोतारः ज्ञातुमिच्छामः यत् संस्कृत भाषायाः वैभवं कीदृशम् अस्ति।
राष्ट्रभाषातिरिक्ता एका अन्या भाषा भवति यस्यां प्राचीन संस्कृति भण्डारः सुरक्षितः विद्यते। भारतवर्षे संस्कृतभाषा एव तादृशी भाषा अस्ति या प्राचीनभाषा प्राचीनसंस्कृत्या ओतप्रोता। विषयेऽस्मिन् दण्डिना काव्यादर्शे निगदितं संस्कृतं नाम देवी वागान् वाख्याता महर्षिभिः। विश्वस्मिन् सर्वेषु राष्ट्रेषु भारतं सांस्कृतिकरीत्या अतिप्रसिद्धं वर्तते। तत्र संस्कृतमेव मूलम्। प्राचीनकालादारभ्य प्रचाल्यमानेयं भारतीति प्रसिद्धा। अस्माकं विष्णुपुराणे आगच्छति उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्ततिः। संस्कृतभाषा विश्वसाहित्यस्य प्राचीनतमा भाषा विद्यते। मानवजीवनस्य सर्वे संस्काराः अस्यामेव भाषायां सन्निहिताः सन्ति।
सत्यमुक्तं भवता। भारती इति नाम्ना प्रसिद्धा संस्कृतभाषा। यादव मान्याः, सम्प्रति श्रोतारः ज्ञातुमिच्छामः यत् संस्कृतभाषां पुनः जनभाषां कर्तुं के उपायाः सन्ति, संस्कृतं पुनः जनभाषा किमर्थं भवेत् इति ज्ञातुमिच्छामः।
वस्तुतः अस्माकं भारतीय संस्कृतेः सभ्यतायाश्च आधारभूतायाः संस्कृतभाषायाः प्रवर्धनेनैव संस्कृतेः सम्यक् परिवर्धनं भवितुम् अर्हति। अस्माभिः सदैव भारतीय संस्कृतेः संरक्षणाय परिवर्धनाय च भाषेयं बाल्यादेव तेषां व्यवहारे उपयोक्तुं शक्या। अस्माभिः सदैव व्यवहारे उपयोक्तव्या च इयं भाषा। अन्यथा गुरुगौरव सम्मानितो अयं देशः परसंस्कृतापेक्षी भविष्यति। यावद् भारतवर्षं स्याद् यावद् विन्ध्य हिमाचलौ यावद् गंगा च गौदा च तावदेव हि संस्कृतम्। तादृशम् एतत् संस्कृतम् सर्वदा जीवितास्ति, सर्वदा जीविता भविष्यति।
संस्कृत भाषा सदा जीविता अस्ति, सदा जीविता भविष्यति इति यादव महोदयैः प्रतिपादितम्। मान्याः, सम्प्रति श्रोतारः ज्ञातुमिच्छामः यत् संस्कृत भाषां जनभाषां कर्तुम् उपभूतयः काः इति ज्ञातुमिच्छामः।
वस्तुतः संस्कृतस्य वर्तमाने भाषित स्वरूपं न दृश्यते, तत्र मार्गे बाधाः सन्ति। तेषु जनजागरणाभावः मुख्य कारणभूतं वयं वक्तुं शक्नुमः। जनेषु संस्कृतं प्रति रुचेः अभावः दृश्यते, संस्कृते व्यवसाय अवसराणां न्यूनता इति अपि जनाः वदन्ति। पुनः भाषा माध्यमेन शिक्षणं इदानीं न दृश्यते, तदपि एकं कारणमस्ति। प्रचाराभावः अस्ति, पाठ्यक्रमेषु संस्कृतस्य उचितं स्थानं न दृश्यते, सरलसाहित्यस्य अभावः प्रायः दृश्यते, अनुसन्धानस्य अभावः दृश्यते, मनोरञ्जनसाधनानामभावः दृश्यते, सांस्कृतिक बोधस्य अभावः दृश्यते, संस्कृतशिक्षकाणां दायित्वबोधाभावः दृश्यते, भाषाकौशलानाम् अनुसरणस्य अभावः दृश्यते, सरलसंस्कृतस्य प्रसारस्य अभावः दृश्यते। एतानि कारणानि इदानीं संस्कृतं भाषात्वेन प्रायः अधिकतया न दृश्यते इति।
भिन्नैः बिन्दुभिः यादव महोदयैः एतस्य उत्तरं दत्तम्। सम्प्रति यादव महोदयाः ज्ञातुमिच्छामः यत् संस्कृतं जनभाषां कर्तुं कः मार्गः भवेत् इति श्रोतारः ज्ञातुमिच्छामः।
हा, भारतीय जनानां संस्कृते रुचिः भवेत्, तदर्थम् अस्माभिः प्रयत्नः करणीयः। संस्कृताय जनान्दोलनस्य आवश्यकता इदानीं दृश्यते। संस्कृतक्षेत्रे व्यवसाय अवसराः अस्माभिः कल्पनीयाः भविष्यन्ति। भाषामाध्यमेन शिक्षणम् अस्माभिः अवश्यं चिन्तनीयम्, प्रचारा अभियानम् अपि अस्माभिः अवश्यं करणीयम्। पाठ्यक्रमेषु संस्कृतस्य उचितं स्थानं वयम् अवश्यं चिन्तयामः। समाजोपयोगी सरलसाहित्यस्य सर्जनं संस्कृतक्षेत्रे यदि भवति चेत् उत्तमं भवेत्। संस्कृतक्षेत्रे क्रियात्मकम् अनुसन्धानं भवेत्। मनोरञ्जनसाधनानां निर्माणं संस्कृतक्षेत्रे अवश्यं भवेत्। संस्कृतशिक्षकेषु दायित्वबोधजागरणम् अस्माभिः अवश्यं करणीयम्। भाषाकौशलानाम् अनुसरणं सर्वैः करणीयम्। सरलसंस्कृतस्य प्रचाराभियानं भवेत्। तदर्थं भारतसर्वकारेण सरलमानक संस्कृतम् इति एकम् अभियानमपि आरब्धमस्ति। सांस्कृतिक पृष्ठभूमौ संस्कृतस्य पाठनं भवेत्। एते विषयाः सन्ति यैः वयं संस्कृतं पुनः जनभाषां कर्तुं समर्थाः भविष्यामः।
संस्कृतभाषा जनभाषा इति विषयमधिकृत्य यादव महोदयैः प्रतिपादितैः वचोभिः वयं धन्याः। आकाशवाणी पक्षतः पौनः पुन्येन हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः।
धन्यवादाः सुरेश महोदयाः, अन्येभ्यः आकाशवाणी जनेभ्यः समेभ्यः धन्यवादाः। वयं मिलित्वा संस्कृतस्य कार्यं कुर्मः, संस्कृतं पुनः जनभाषां कुर्मः इत्येव उक्त्वा विरमामि। जयतु संस्कृतं, जयतु भारतम्।
धन्यवादाः भवते। प्रियमित्राणि, संस्कृत सेवारतैः समाराधकैः यथासमयं यथास्थानं च संस्कृत विषयक कार्यक्रमाः, संगोष्ठ्यश्च, कार्यशालाश्च समनुष्ठीयन्ते। अधुना वयम् अवलोकयामः यत् आदेशे केषुचित् राज्येषु स्थलेष्वपि के कार्यक्रमाः अनुष्ठिताः, समायोज्यन्ते, विधास्यन्ते च। संस्कृत दिग्दर्शन नामाभिधेयकम् अनुभागम् उचितरीत्या प्रस्तौति अस्माकम् सहयोगी जतिन शर्मा।
संस्कृत भारती रुड़की पक्षतः सितंबर मासे त्रिदिवसीया अखिल भारतीय संस्कृत भारती संगोष्ठी समायोजयिष्यते। एतस्यां संपूर्ण देशात् प्रायशः एकसहस्राधिकाः संस्कृत भारत्याः कार्यकर्तारः सम्मिलिताः भविष्यन्ति। संस्कृत भारती द्वारा प्रतिवर्षमिव आयोज्यमानस्य संस्कृत लघु चलचित्रोत्सवस्य उद्घोषणा अखिल भारतीय प्रचार प्रमुखेण श्री शिरीश महोदयेन कृता। कार्यक्रमोऽयं 25-2000 वर्षे जनवरी मासे गोवा प्रदेशे भविता। जुलाई मासस्य 19 दिनांके श्रीकामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये नवप्रविष्ट छात्रेभ्यः दीक्षारम्भ कार्यक्रमः समायोजितः। श्रीकामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये जुलाई मासस्य 16 दिनांके स्नातकोत्तर व्याकरण विभाग द्वारा विभागाध्यक्षस्य प्रोफेसर दयानाथ झा महोदयस्य अध्यक्षतायाम् एका संगोष्ठी समायोजिता। संगोष्ठ्याः विषयः पंडित महावैयाकरणस्य दीनबंधु झा महोदयस्य जीवनचित्रणम् इत्यासीत्।
प्रियाः निर्मल मनयुताः बालाः, संस्कृत साप्ताहिकीति कार्यक्रमः बालवल्लरी प्रभागेण विना अपूर्णो वर्तते। बालानां सुखबोधाय प्रकल्पिता इयं बालवल्लरी। अद्यतने बालवल्लरी प्रभागे साधना शर्मा भवतां कृते नीति शास्त्रोपयुक्तां वल्लरीम् एकां श्रावयति।
बालाः, जानन्ति वा अद्य कः विशेषः? अद्य गुरुपूर्णिमा वर्तते। तर्हि अद्य अहं रामचरित मानसात् एकां कथां स्वीकृत्य प्रस्तुता अस्मि साधना शर्मा। एकदा एकः काकभुषण्डी आसीत्। सः एकस्मिन् मन्दिरे शिवस्य प्रार्थनायां निरतः आसीत्। तत्र काकभुषण्डी स्वगुरुं दृष्टवान्, किन्तु गुरुं प्रति आदरं न दत्तवान्। इदं दृष्ट्वा शिवः स्वभक्तं प्रति क्रुद्धः जातः, अपि च तं श्रापितवान् यत् त्वं कृतघ्नः असि, त्वं सर्प भव। तर्हि गुरुः इमं श्रापं श्रुत्वा शिवं शिष्यस्य कृते कृपां कर्तुम् उक्तवान्। ततः शिवः अवदत् यत् तस्य सहस्रशापित जन्मानन्तरं काकभुषुण्डी रामभक्तः भविष्यति। शिवः तं सञ्चेततवान् यत् पुनः कदापि कस्यचित् गुरोः अवज्ञा न करणीया। बालः, ईशः एव काकभुषुण्डी अनन्तरं पक्षिराजं गरुडं रामायणस्य कथां श्रावयति। एतद् एव रामायणं भुषुण्डी रामायणमुच्यते। तर्हि बालाः, एषा कथा शिक्षयति यत् यस्मात् गुरोः एकः अपि अक्षरः अधीतः, सः गुरुः सर्वदा वन्दनीयः भवति, पूजनीयश्च भवति। अतः तस्य अवज्ञा न कदापि चिन्तनीया। अन्ते गुरुपूर्णिमावसरस्य शुभकामनाः। पुनर्मिलामः बालाः।
बालवल्लरी प्रभागात् पश्चादेव जनकल्याणाय सम्यक् बोधाय च भारतस्य रमणीय भाषाणां शब्दगुम्फनं श्रेष्ठ निष्पादनेन साकं सम्पादयति अस्मत् सहयोगिनी मुदिता वेतालः।
प्रथमं वाक्यमस्ति, भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति। पहला वाक्य है, भारत के तीनों दिशाओं में समुद्र तट है। मारवाड़ी में भारत रे तीनों दिशामोए समुद्र तीर है। द्वितीयं वाक्यमस्ति, अस्मादेव कारणात् भारत देशः प्रायद्वीपः इति कथ्यते। दूसरा वाक्य है, इसी कारण भारत को प्रायद्वीप कहा जाता है। मारवाड़ी में इन कारण भारत ने प्रायद्वीप कहवे। तृतीयं वाक्यमस्ति, पूर्व दिशायां बंगोपसागरः, दक्षिण दिशायां हिंद महासागरः, पश्चिम दिशायां च अरब सागरः अस्ति। तीसरा वाक्य है, पूर्व दिशा में बंगाल की खाड़ी, दक्षिण में हिंद महासागर और पश्चिम में अरब सागर है। मारवाड़ी में पूर्व दिशा मोए बंगाल की खाड़ी, दक्षिण मोए हिंद महासागर और पश्चिम मोए अरब सागर है। चतुर्थम वाक्यमस्ति, एतेषां त्रयाणाम् अपि सागराणाम् संगमः कन्याकुमारी तटे भवति। चौथा वाक्य है, तीनों सागरों का संगम कन्याकुमारी तट पर होता है। मारवाड़ी में कन्याकुमारी तीर माते तीनों सागर रो संगम है वे। पंचमं वाक्यमस्ति, कन्याकुमारी तटे पूर्णिमायां चंद्रोदयः सूर्यास्तम च युगपदेव द्रष्टुं शक्यते। पांचवा वाक्य है, कन्याकुमारी तट पर पूर्णिमा के दिन सूर्यास्त और चंद्रोदय एक साथ देखा जा सकता है। मारवाड़ी में इन तीर माते पूर्णिमा रे दिन सूर्यास्त और चंद्रोदय एक साथ ही देखो जावे। धन्यवाद।
शोभनम् तावत् श्रोतारः, कार्यक्रमः अवसानम् प्रतियाति। आशास्ति यत् संस्कृत साप्ताहिकीति कार्यक्रमस्य अयम् नूतनः अङ्कः भवद्भ्यः सर्वेभ्यः रोचते। आगामि सप्ताहे नवीन विषयान् उररीकृत्य अत्रैव एतस्मिन्नेव काले भवन्तः सर्वे स्वीय प्रतिक्रियाः nst.sanskrit@gmail.com इत्यत्र सम्प्रेष्य अस्मान् प्रेरयन्तु कृपया। तावत् पर्यन्तं नमो नमः। जयतु संस्कृतं, जयतु भारतम्।